inner critical mind and the room we have to make space
पाणिनिं सूत्रकार इंच प्रणतोस्तु मुनित्रयम् मुनित्रयम् नमस्कृत्य अरुपीश्वरि भाग्यत वैयाकरण सिद्धांत कौमुदीयम् विरच्यते। सद्य तृतीय विभक्ति प्रकरणम् समापयामः। वस्तुतः ह्यः यत् प्रेजेंटेशन् आसीत् तदेव अद्यापि उपयुज्यते। But I just made it into a different presentation as same thing, cutting the slides from there and pasting it. So I'm currently using whiteboard 920. It has only today's slides. If you cannot see the thing, you can use the same presentation which I had sent by mail yesterday. We'll be starting from slide 14 of that presentation. उपपदतृतीय विभक्तौ अग्रिमं सूत्रं भवति सः युक्ते अप्रधाने द्वेपदे स्तः सः युक्ते इति एकम् अप्रधाने इति अपरम् कर्तृप्रणयो तृतीया इति सूत्रात् तृतीया इति अनुवर्तते सहार्थेन युक्ते अप्रधाने तृतीया स्यात् इति सूत्रार्थः सः तेन सह इति प्रयोजनः किल तदेव सः साहित्यम् इत्यर्थः इत्यस्मिन् अर्थे तृतीयाविभक्तिः भवति तस्य भवति अप्रधानस्य भवति प्रधानः कः कर्ता प्रधानः ह्यः एव अधीतं स्वतन्त्रः कर्ता स्वातन्त्र्यमिह प्राधान्यम् इति अधीतम् क्रियया सह यस्य योगः साक्षादस्ति यथा पिता आगतः इत्युक्ते पिता एव कर्ता अतः तस्य कर्तृसंज्ञास्ति सः प्रधानः पुत्रः अप्रधानः तस्य तृतीयाविभक्तिः भवति पुत्रेण सह आगतः पिता तदेव पुत्रः आगतः इत्यस्ति चेत् पुत्रः पित्रा सह आगतः यः प्रधानं भवति तस्य तृतीयाविभक्तिः भवति अनेन सूत्रेण इति प्रथमः भागः एवं साकं सार्धं समं योगेति इति उच्यते केवलं सः इत्यस्य शब्दस्य योगे इति नास्ति अत एव सूत्रार्थे उक्तं सहार्थेन युक्ते सः इत्यस्य अर्थः तेन अर्थेन योगे सति तृतीयाविभक्तिः भवति तत्तु सः इति शब्देनापि भवितुमर्हति अन्येपि तत् समानार्थकाः शब्दाः सन्ति साकं सार्धं समं सः साकं सार्धं समम् इति चत्वारः अपि समानार्थकाः एषां सर्वेषां प्रयोगे तृतीयाविभक्तिः भवति रामेण समं सीता गता मया सार्धं त्वम् आगच्छ इत्यादिरीत्या सर्वेषां प्रयोगे भवति अपरञ्च विशेषः विनापि तद्योगं तृतीया एतेषां पदानां प्रयोगः भवेदेव इति नियमः नास्ति पदस्य अभावेऽपि यदि सः अर्थः गम्यते तदापि तृतीयाविभक्तिः भवति इवन् वेन् द वर्ड् इट्सेल्फ् इस् नाट् यूस्ड् If that meaning is got from the context, tadati tritiyaya bhaktihi bhavati. Katham jnayate iti prashne, vruddho yuna tallakshanascheteva visheshaha iti panini sutram asti. Ityadi nirdesha iti uchyate, paninina prayogaha krataha, vruddho yuna tallakshanascheteva visheshaha iti. Inantu etashesha vidharekam sutram. एवमेव अन्यानि सूत्राणि अपि सन्ति पिता मात्रा शशुरः शश्व इत्यादि सर्वत्र तथैव पिता मात्रा मात्रा सह यदा पिता पितृशब्दः भवति तदा तदेव शिष्यते इत्यर्थः यथा माता च पिता च पितरौ उभयत्र मातृशब्दः न भवति माता च पिता च इत्यस्य एकशेषे कृते पितरौ इति भवति तत्र सूत्रं किमस्ति पाणिनेः पिता मात्रा इत्यस्ति मात्रा किं मात्रा सह यदा पितृशब्दः मातृशब्देन सह यदा पितृशब्दः अस्ति तदा पितृशब्दस्य शेषः पितृशब्दः शिष्यते इत्यर्थे पिता मात्रा इति प्रयोगः कृतः तत्र कथं तृतीया विभक्तिः सः इति शब्दः नास्ति किल इति चेत् शब्दः नास्ति चेदपि तस्मिन् अर्थे गम्यमाने तृतीया विभक्तिः भवत्येव एवमेव अस्मिन्नपि वृद्धः यूना वृद्धः वृद्ध इति काचन संज्ञा वैयाकरणः अहं संज्ञा यूना युव संज्ञा अपि अस्ति वृद्ध एण्ड युवा टु संज्ञा इन् व्याकरण वृद्धः यूना सः शिष्यते इति सम्पूर्णः वाक्यार्थः यूना इति तृतीया विभक्तिः अस्ति तृतीया विभक्तिः कथं प्राप्ता इति चेत् सहार्थः अत्र अवगम्यते यद्यपि साक्षात् सः इति पदस्य प्रयोगः नास्ति तथापि तस्य अर्थस्य अवगमः भवति इति कारणेन तृतीया विभक्तिः भवति इति सूत्रार्थः विनापि तद्योगं तृतीया वृद्धो यूना तल्लक्षश्चेदेव विशेषः इत्यादि निर्देशात् पाणिनेनैव तादृशाः प्रयोगाः कृताः इत्यतः रामेण सह सीता गता इति वक्तुं शक्यते रामेण सीता गता इत्यपि वक्तुं शक्यते सहार्थस्य अवगमनम् अस्ति चेत् अलम् सहादिशब्द अभावेति तदर्थावगमे सः अर्थः अस्ति चेत् तृतीया विभक्तिः भवति इति सूत्रार्थः सः इत्यप्रधाने अत्यन्तं परिचितं प्रमुखं च सूत्रं बहुत्र प्रयोगः दृश्यते अस्य अग्रिमं सूत्रमस्ति येनाङ्गविकारः श्रूयते किल येनाङ्गविकारः इति अग्रिमं सूत्रम् पुनः परद्वयमस्ति येन अङ्गविकारः इति कर्तृकरणयोः तृतीया इति सूत्रात् तृतीया इति अनुवर्तते अङ्ग इति पदस्य अस्मिन् सूत्रे कोऽर्थः इति चेत् अङ्गानि अस्तु सन्ति इति अङ्गम् अङ्गम् नाम अवयवः इत्यर्थः सामान्यतः अत्र तु अङ्गानि अस्य सन्ति इति मतुगर्थे यथा धनमस्य अस्ति इति धनी इति भवति एवम् अङ्गमस्य अस्ति इति अङ्गी इति सामान्यतः भवति अङ्गाङ्गिभावः इत्यादौ अङ्गमस्य अस्ति इति इन् प्रत्यये कृते अङ्गी इति भवति किन्तु अङ्गमस्य अस्ति इत्यर्थे एव अच् प्रत्ययः एव भवति तदा तु अङ्गम् इत्येव भवति सो बोत् द आर्गन् एण्ड् आर्गानिज़म् केन् बि काल्ड् अङ्ग अङ्गम् इत्यस्य प्रायेण अवयवः इत्यर्थः अस्मिन् सूत्रे तु अङ्गपदेन अङ्गी नाम शरीरं दृश्यते न तु केवलम् अङ्गम् अङ्गानि अस्ति सन्ति इति विग्रहे पुनः अङ्गम् इति भवति अक्षाद्यचित्रेण अच् प्रत्ययः पुनः अङ्गम् शरीरम् तस्य विकारः इत्युक्ते शरीरविकारः इति अर्थः अङ्गविकारः इत्यस्य विशिष्टः अर्थः किमर्थम् तादृशः अर्थः इति ज्ञायते येन अङ्गेन विकृतेन अङ्गिनः विकारः लक्ष्यते ततः तृतीया स्यात् इति सूत्रार्थः शरीरविकारः उच्यते सर्टन् आर्गन् आफ् The person is disabled. The person himself is referred to as disabled. Okay, so only one particular organ which has been disabled, but the whole person is referred to as being disabled. Yena angyena vikrutena, kinci rangam tasya purushasya vikratam, tena angyinaha nama sharirasya vikaraha lakshyate. Pada tataha nama tasmad angat, angavachakat padat, avayavavachakat padat, sutiya vibhakti bhavati. Ityartha. अक्ष्णाकाणः इति उदाहरणम् हि इस् ब्लैण्ड् इन् वन् ऐ इत्यर्थः अक्ष्णाकाणः हियर् द आर्गन् विच् इस् डिसेबल्ड् इस् अक्षि नाम हिस् ऐ हेस् बीन् हेस् सम् प्राब्लम् अक्ष्णाकाणः काणः इस् अ पर्सन् हु इस् ब्लैण्ड् हि द होल् पर्सन् इस् सेड् टु बि ब्लैण्ड् बिकास् वन् आफ् हिस् आर्गन् विच् इस् द अक्षि हेस् बीन् डिसेबल्ड् येन अङ्गेन विकृतेन नाम नयनेन विकृतेन अङ्गिनः शरीरस्य अथवा पुरुषस्यैव विकारः लक्ष्यते ततः नाम तस्मात् अङ्गवाचकात् पदात् नाम अक्षिशब्दात् तृतीया विभक्तिः भवति अक्ष्णाकाणः इट् एक्चुअलि एक्साक्ट्लि ट्रान्स्लेटेड् इन् टु इङ्ग्लिश् इट् जस्ट् मीन्स् हि इस् ब्लैण्ड् इन् वन् ऐ इत्यर्थः तत्र तृतीयायाः प्रयोगः अस्ति कथं प्रयोगः इति साधयितुम् इदं सूत्रम् अक्ष्णाकाणः अक्षिसम्बन्धि काणस्य विशिष्टः इत्यर्थः सो हि हेस् ब्लैण्ड्नेस् रिलेटेड् टु वन् ऐ इत्यर्थः एक्चुलि एकमक्षिविकलं काणम् इत्युच्यते there is two ways of referring to the disability. You can say the eye is blind, or you can say the person himself is blind. Okay, you have to see the difference between that. Where you are saying the eye is blind and the person is blind. It is in the second place that such usage is there. Akshna Karanaha. He is blind in one eye. Ekamakshikaram Karanam. The word Karana is used to indicate that one eye is blind. Avayava Dharmasya. And that blindness is related to an avayava, organ. Avayava Dharmasya. Sharire Sadavachinna Atmanita Vyavaharaha Nirudhaha. That is being taken or imposed upon the Shariri. Sharira and Shariri. Even though the blindness is confined to one organ, it is superimposed on the entire person. The next question is, why should you say Akshana Kanaha? The Kanaha, the word Kana itself means a person who is blind in one eye. Kanaha ityanenaiva asya akshi kanam arthata andhaha iti jnayate. Tarhi kimartham Akshana Kanaha? Why should you say blind in with an eye? Blind itself, blindness itself refers to an eye. He cannot be blind in the ear or blind in the leg. Right? Blind itself refers to akshi. It is disability refers exclusively to the eye. Kimartham dvedha prayogaha. Akshana Kanaha iti prayoga sukaha ityapi prashnaha. Dvau viprau iti vat Akshana Kanaha iti prayogaha. Dvau viprau, dvau balakau iti uchyate. Vastutaha avashyakata nasti. Balakau ityukte eva jivasanata dvau iti gamyate. Kimartham dvau balakau iti uchyate. Ekaha balakaha iti uchyate. Balakaha ityukte ekaha ityeva. Kimartham iti chetam prayogaha asti. There are some cases even where repetition happens in language, naturally. Tatha akshana kanaha, blind in the eye, ityapi prayogaha asti. Sanskrita bhashayam api asti, angla bhashayam api asti. So, akshana kanaha, yena angena vikrutena, akshana vikrutena, anginaha nama sharirasya vikaraha lakshyate, ataha angavachakaspada, avayavachakaspada, tritiya bhavati. So, this sutra actually has very limited usages, akshana kanaha. Padena khandaha, he is lame in one foot. Ityadayaha, kyochanayava prayogaha santi. There are very limited prayogas of this sutra. But still this is one of the famous phrases used. Angavikaraha kim akshikarnam asya. The sutra says, yena angavikaraha. And we define angavikara and the sutra as sharirasya vikaraha. Yatra sharirasya vikaraha uchyate, tatraeva tritiya vibhaktihi. Yatra kevalam angasya, avayavasya vikaraha uchyate. Tada tritiya vibhakti na bhavati. Udaharanam akshikaranam asya. His eye is blind. Tada kim kim asti akshnaha eva karanatvam uchyate. Natu sharirasya purnasya. Ataha atra tritiya vibhakti nasti. Asya akshikaranam. His eye is blind. Akshna kanaha ityukte. He is blind in one eye. Tasya sampurnasya avayavinaha vikaraha yada uchyate sadaiva tritiya vibhaktihi akshana kanaha. Yada tu kevalasya avayavasya vikaraha uchyate tada tritiya vibhaktihi na bhavati akshi kanam asya iti prayogaha. Agrimam sutram asti itthambhuta lakshane. Ekameva padam asti कर्तृकरणेन तृतीया इत्यतः तृतीया इति अनुवर्तते. कञ्चित् प्रकारम् प्राप्तस्य लक्षणे तृतीया स्यात् इत्थम्भूतः इति पूर्वमेव दृष्टम् कुत्र कर्मप्रवचनीयेषु लक्षणेत्थम्भूताख्यानभागवीत्तात् प्रतिपद्यमः अयम् प्रकारः इत्थम् इत्थम्भूतः कञ्चित् प्रकारम् प्राप्तस्य लक्षणे तृतीया स्यात् लक्षणम् नाम ज्ञापकम् An identifier of a particular class of things is called Itthambhuta Lakshana. If you look at the example, it will be very clear. Jatabhihi tapasaha. Kashchana asti, kachana vyaktihi asti, tasya jataha drishtva, saha tapasaha iti nirniyate. Looking at his hair, matted hair, it has been decided that he is a tapasa. Jatavyapya tapasattu vishishtaha. Vyapya namal ज्ञायते इत्यर्थः जटाभिः एव तस्य तापसत्वं ज्ञायते यु आर यूजिंग दट जटा आई मीन दिस इज वेरी कॉमन इन टुडेस डे इफ यू लुक एट एनी सीरियल इफ यू वांट टू मार्क द फेस दे पुट अ जटा एंड दे पुट अ बियर्ड एंड दैट विल आइडेंटिफाई द फेस आई मीन वेदर इट इज करेक्ट और नॉट दैट इज देयर इज सम स्टीरियोटाइप व्हिच इज एसोसिएटेड विद ईच काइंड ऑफ अ कैरेक्टर For example, if a character is wearing, say, a crown and many jewels, you decide he is a king. If a character is depicted with some horns and long teeth, you depict he is a demon. Okay? So there are certain characteristics which you use to identify a particular thing. Kanchit prakaram, a particular class of things to identify, there is some character. Okay? So tada, tasya, लक्षणस्य नाम येन सः इत्थम्भूतः इति ज्ञायते तस्य तृतीया विभक्तिः भवति यथा जटाभिः तापसः जटाभिः अयं तापसः इति ज्ञायते इत्यर्थः जटा अत्र लक्षणं तापसत्वं लक्ष्यं जटां दृष्ट्वा अयं तापसः इति ज्ञायते अतः जटाशब्दात् तृतीया विभक्तिः भवति जटाभिः तापसः एवं प्रयोगाः कर्तुं शक्यन्ते यू केन् यूस् एनी विच् यू यूस् एज़ एन् ऐडेण्टिफैयर् Say if you have same thing like say Sadeva Kiritadihi Raja Ityadi Vaktum Shakyate whichever you use as an identifying character for that thing will get Tritiya Vibhakti. संयोन्यतरस्यां कर्मणि इति अग्रिमं सूत्रम् त्रीणि पदानि सन्ति प्रश्नः तापसः इत्युक्ते तपस्वी यः मनादिषु तपः करोति सः तापसः समडिः A sage, I mean not necessarily a sage, but an ascetic itself. Tapaha karoti iti tapasaha. Sam yonya tarasyam karmani. Trini padani santi. Sam yaha anya tarasyam karmani. Iti trini padani. Satra karana yo sritiya iti taha sritiya iti eno vastate. Sam yaha iti se sam iti upasargaha dya dhatuhu. सम इति उपसर्गपूर्वकस्य ज्ञाधातोः इत्यर्थः अत एव सम्पूर्वस्य जानातेः जानातिः नाम ज्ञाधातुः जानाति जानीतः जानन्ति ज्ञाधातुः सम इति उपसर्गपूर्वकस्य ज्ञाधातोः कर्मणि नाम कर्मपदं यदस्ति तस्य कर्मपदस्य तृतीया विभक्तिः विकल्पेन भवति अत्र इयं विभक्तिरेव साक्षात् कर्मपदस्य विभक्तिः तृतीया विभक्तिः उच्यते कर्णसंज्ञा नास्ति इट् इस् आल्वेस् मेक् अ डिस्टिङ्क्शन् बिट्वीन् वेर् देर् इस् अ कारक विच् इस् बीङ्ग् टोल्ड् एण्ड् देर् इस् अ विभक्ति ड्यू टु द कारक फार् एक्साम्पल् देर् इस् करणकारक करणत्वात् तृतीया भवति अत्र करणकारकत्वं नास्ति इट् इस् नाट् चेञ्जिङ्ग् द कारक फ्रम् कर्म टु करण इट् इस् स्टिल् कर्मपद कर्मपदस्यैव तृतीया विभक्तिः भवति इति उच्यते उदाहरणं पित्रा पितरं वा सञ्जानीते पितरं सञ्जानीते इत्येव प्रयोगः पितरं सम्यक् जानाति सम् जानाति इत्यर्थः तस्य आत्मनेपदं भवति सम्पूर्वकस्य न्याधातोः सञ्जानीते पितरं सञ्जानीते पिता अत्र कर्म हि नोस् हिस् फादर् वेल् इत्यर्थः तस्य कर्मणः विकल्पेन तृतीया विभक्तिरपि भवति पित्रा सञ्जानीते इत्यपि प्रयोगः अस्ति अर्थस्य समानम् द मीनिङ्ग् इस् द सेम् हि नोस् हिस् फादर् वेल् इत्येव अर्थः प्रयोगस्तु तृतीया विभक्तेः अपि भवितुम् अर्हति पित्रा सञ्जानीते पितरं सञ्जानीते उभयमपि साधु हेतौ इति अग्रिमं सूत्रम् एकमेव पदमस्ति कर्तकरणयोः तृतीया इत्यतः तृतीया इति वर्तते हेत्वर्थे तृतीया स्यात् हेतुः नाम कारणम् इट् इस् द रीज़न् आर् द कास् इति उच्यते अत्र भेदः ज्ञातव्यः हेतुः नाम कः करणं नाम किम् वट् इस् द डिफ़रेन्स् बिट्वीन् हेतु अण्ड् करण There are cases where you might get confused between hetu and karana. For example, banena hanti isyukte. Banaha karanam va heturva. Is it the reason or the cause? Is this the cause of death? Right? If you generally say cause, is it a hetu or is it a karana? Iti prashna. Tada hetuhu namasaha iti isyukte. Dravyadi sadharanam nirvyapala sadharanam se hetutvam. Karanatvam tu kriyamatra vishayam vyapara niyatam cha. So both hetu and karana are causes. Kintu ekaha bhedaha asti, hetu is more general than a karana. Karana is very specific. Karanatvam tu, we'll discuss see what is karana. Kriyamatra vishayam. Kriyayaha karanam eva karanam iti uchyate. Only the cause for a kriya, for an action is called karana, can be called a karana. And vyapara niyatam. Anything, for anything to be called karana, it should have some vyapara, some kriya of its own. For example, if vana is there, vana is leading to killing, it is a kriya. Kriya yaha karana masti, vyapara niyatam, and a vana has a vyapara of its own, which is to pierce. Ataha, vyapara niyatam, kriya matra vishayam, karanatvam. Vana is a karana. Similarly, when you say asina chinati, asi, that is the sword, is giving rise to the kriya. It is the cause for the kriya of chedana. And it has a vyapara. The cutting of it can be achieved by the lekhani. By the asi. That is why it is also a karana. So karanatvam kriya matra vishayam vyapara niyatam cha. Kintu hetuh dravyadi sadharanam nirvyapara sadharanam cha hetutvam. Hetuh nama dravyam prati janakam bhavitum arhati, gunam prati janakam bhavitum arhati, kriyam prati api janakam bhavitum arhati. A hetu can be a reason for a material dravya, for a quality guna, or for kriya, which is action. Sarveshamati karanam hetuhu bhavitum arhati, vyaparavat vyapara hinam va, and it may or may not have a vyapara of its own. So in all these cases it can be called a hetu. So hetu is more general, and karana is more specific. If a hetu is reason for a kriya and it has a vyapara of its own, it will be called a karana. Karane karanatvata tritiyaya bhaktihi bhavati. Hetu ho api hetu ishyanena tritiyaya bhaktihi bharavati. Udaharanam darshayati dandayana ghataha. Danda is the stick or the rod which the potter uses for making pottery. There are several things, equipment which is required for making a pot. Say danda, chakra, etc. So usually considered. So chakra is the potter's wheel and danda is the potter's club which he uses for making his pot. Dandayana ghataha ityasti. Atra dandaha ghatasya hetuhu. Danda is one of the reasons or the causes for utpatti of the ghata. Idani dande. Dandaha heturva karanamva. It is a hetu or a karana. It is not a karana. Kimartham vyapara satveti. Kasya vyapara asti. There is movement of the danda and therefore it has vyapara. Kriya janakatva abhava. It is not giving rise to a kriya here. It is giving rise to an object. It is the pot. It is not giving rise to an action. Ataha karanatvam nasti. Dandaha ghatasya hetuho. Hetutvat atta sutiyaya bhakti hesti dandena ghataha. Iti uchyate. Evam punyena drishto harihi. Hari, the Lord, was seen because of punya. Punya is merit, the result of meritorious deeds. So something which cannot be seen in material form, that is called punya. Okay. Now, punyasya haridarshana rupa kriya janakatvevi. In this case, it is giving rise to a kriya. The kriya is seeing hari. The vision of hari is brought about by punya. Punya is the hetu and haridarshana is the kriya. Okay. Kriya janakatvevi nirvyaparatvat. Punya does not have an operation of its own. It does not act. Like the sword has the operation of cutting, is the vyapara of the sword, or piercing is the vyapara of the bana, punya does not have a vyapara of its own. That's why it cannot be a karana. కరణం నభవతి హేతురేవ భవతి. హరిదర్శనే పుణ్యం హేతుః, హేతౌ ఇత్యనేన అత్ర తృతీయా భక్తిః భవతి పుణ్యేన దృష్టౌ హరిః. అన్యదపి ఉచ్యతే దీక్షితైః ఫలమపి ఇహ హేతుః. అధ్యయనేన వసతి, ఫలం ద రిజల్ట్ ఆర్ ద ఫ్రూట్ ఆఫ్ అన్ యాక్షన్ కెన్ ఆల్సో బి ట్రీటెడ్ యాజ్ అ హేతు ఇన్ సమ్ కేసెస్. ఫర్ ఎగ్జాంపుల్ అధ్యయనేన వసతి ఇది ఉచ్యతే, హి లివ్స్ ఇన్ సమ్ ప్లేస్ ఫర్ స్టడీయింగ్, అధ్యయనార్థం వసతి ఇత్యర్థః. ఇదానీం వాసస్య ఫలం భవతి అధ్యయనం, బికాజ్ హి స్టేస్ దేర్ హి కెన్ స్టడీ. వాసస్య ఫలం అధ్యయనం, వాసస్య హేతురపి అధ్యయనం, ఇట్ ఇస్ ఆల్సో ద రీజన్ ఫర్ హిస్ స్టడీ. హి స్టేస్ దేర్ ఫర్ స్టడీయింగ్ అండ్ అధ్యయన హ్యాపన్స్ బికాస్ హి స్టేస్ దేర్. ఫలమపి భవతి హేతురపి భవతి. ఇన్ బోత్ కేసెస్ ఐ మీన్ యాజ్ లాంగ్ యాజ్ ఇట్ ఇస్ అ హేతు తదా తృతీయ భక్తి భవతి. వస్తుతః ఫలం భవతి చేత్ చతుర్థీ విభక్తి భవేత్, అధ్యయనార్థం వసతి. ఫలం తాదర్థే చతుర్థీ వాచ్య ఇత్యనేన చతుర్థీ విభక్తి భవతి. కింతు ఫలమపి హేతుః, యది ఫలమపి హేతుః భవతి, ఇఫ్ ద ఫల ఇస్ ఆల్సో ద రీజన్ తదా అత్రత తృతీయా అపి భవతి అధ్యయనేన వసతి ఇత్యపి సాధు. ఉభయం సాధు, చింతే అధ్యయనేన వసతి అధ్యయనార్థం వసతి. యదా హేతుత్వం వివక్షితం తదా తృతీయా విభక్తిః భవతి, యదా తాదర్థ్యం వివక్షితం తదా చతుర్థీ విభక్తిః భవతి. అధ్యయనేన వసతి అధ్యయనార్థం వసతి అథవా అధ్యయనాయ వసతి ఇది ప్రయోగద్వయమపి దృశ్యతే. అత్ర అన్యః విచారః ఉపస్థాప్యతే దీక్షితైః, గమ్యమానాపి క్రియా కారక విభక్తౌ ప్రయోజిక. కదాచిత్ కిం భవతి ఇత్యుక్తే వాక్యే క్రియా న శ్రూయతే, యు డు నాట్ హియర్ అ క్రియా ఇన్ ద sentence, tathapi tat prayukta karaka vibhakti hi shruyate. Is there a particular vibhakti on a word which has to be a karaka vibhakti? Kriya eva nasti chet karaka vibhakti hi katham iti prashnah. Karakam nama kriya janakam, kriya asti chet eva karakatvam sambhavati. Kriya eva yadi nasti tathi katham karaka vibhakti hi bhavati. Gamyamana api kriya karaka vibhaktau prayodhika. A kriya which is not directly stated by words, but it can still be inferred. Gamyamana is that it can be inferred. Yatha saha ityukte kim saha asti iti adhyahriyate. Prayena sarvatra asti ityasya adhyaharaha bhavati. Kadachit anyasamupi kriyanam adhyaharaha bhavati. Tadrishyaha kriyaha api karaka vibhaktau prayodhikaha. Nama karaka vibhaktim utpadayanti ityasaha. Alam shramena iti ityasya. Shramena alam, enough of putting your effort, ityasaha. Alam ityasmi, shramena iti srutiya asti, srutiya yaha kim rida matra. Why or how do we have a srutiya yabhakti here? Prashnaha. Shramena sadhanam sadhyam nasti ityasaha. Alam is separate, enough. Shramena sadhyam nasti, it is not possible by effort. That is why alam shramena ityasme, enough of effort, stop your effort ityasaha. So actual breakup of the sentence is alam is stop, shramena sadhyam nasti, this cannot be achieved by effort. Iha sadhana kriyam prati shramaha karanam, there is a kriya called sadhana, achieving something which is not stated. Alam shramena ityatra sadhana kriya na ukta, kevalam gamyamana sadhyahriyate, tam kriyam prati shramasya సమహ కరణం భవతి కరణత్వా తృతీయా భక్తి. యు నోటిస్ దిస్ ప్రయోగ, వి యూస్ ఇట్ ఎవ్రీవేర్ అండ్ జనరలీ వి థింక్ అలం విద్యసి యోగే నిషేధార్థకస్య అలం శబ్దస్య యోగే తృతీయా భక్తి. దట్ ఇస్ వాట్ ఇస్ మోస్ట్ పాపులర్. వెనెవర్ అలం ఇస్ యూస్ ఇన్ ద సెన్స్ ఆఫ్ నిషేధ, దట్ ఇస్ స్టాప్ ఆర్ ఇనఫ్, తదా తృతీయా భక్తి భవతి ఇది అస్తి. దట్ ఇస్ అ జనరల్ రూల్ విచ్ ఇస్ టాట్ ఇన్ వ్యాకరణ విశేష. ఇట్ ఇస్ ఎవ్రీవేర్. అలం శ్రమేణ, అలం విలంబేన, అలం విస్తరేణ, సర్వత్ర అస్తి. ఇంకో తాదృశం సూత్రం నాస్తి, దర్ ఇస్ నో సూత్ర విచ్ సేస్ నిషేధార్థకస్య అలం ఇత్యస్య ప్రయోగే తృతీయా విభక్తిః. సర్వత్ర తత్ర గమ్యమానా క్రియా సాధ్య క్రియా అధ్యాహరణీయ. ఎవ్రీవేర్ యు హావ్ టు టేక్ దట్ క్రియా అండ్ మేక్ ఇట్ ద కరణ ఫర్ దట్ క్రియా. सर्वत्र एतादृशः प्रयोगः भवति इत्यतः स्मरणार्थं टु रिमेम्बर् ईसिलि विसेदट् निषेधार्थकस्य अलं शब्दस्य योगे तृतीया विभक्तिः इति. किन्तु तादृशं सूत्रं नास्ति. इट् इस् नाट् एन् उपपद विभक्ति. देर् इस् नो सूत्र और् वार्तिक वैपाणिनी और् कात्यायन विच् सेस् अलम् इत्यस्य योगे तृतीया विभक्तिः. इन् आल् सच् प्रयोग यु हव् टु सब्स्टेन्शियेट् द प्रयोग यूसिङ्ग् द सध्याहार. गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका इत्युक्त्वा साधनक्रिया अध्याह्रियते. साधनक्रियां प्रति करणं भवति, श्रमः वा विलम्बः वा किमपि. अतः करणत्वात् तृतीया विभक्तिः भवति. क्रिया तु न उच्यते इत्यर्थः. एवमेव शतेन शतेन वत्सान् पाययति पयः. There's a cowherd who has hundreds of cows and hundreds of calves. He allows the cows, calf to drink milk by hundreds. Shatena shatena vatsan payaha payayati. Vatsaha nama dhenohu shishuhu vatsaha. Vatsan payaha kshiram payayati ityataha. He allows them to drink milk. He does not have, I mean, he wants to control them, so he does not allow them all together. Shatena shatena by hundreds. Hundred, hundred, hundred. He separates them into hundreds and makes them drink ityataha. अत्र कथं शतेन इत्यत्र तृतीया विभक्तिः इति चेत् अत्रापि गम्यमाना क्रिया शतेन परिच्छेद्य डिवैडिङ्ग् देम् इन्टु हण्ड्रेड् इत्यर्थः. परिच्छेदनक्रियां प्रति शतः शतं करणम्. अतः शतेन परिच्छेद्य वत्सान् पयः पाययति. अत्रापि गम्यमाना क्रिया तृतीया विभक्तिं नाम कारकरणविभक्तिं तृतीयां प्रति प्रयोजिका भवति इत्यर्थः. And the last part in Tritiya Vibhakti, Asishtabdha. Yes, is there a question? Gamyamana Kriya, Ya Kriya Sakshat Nochyate. For example, if I say, Saha Balakaha Asti, then Kriya Asti, Sakshad, Bhuvi Kriya Adhava, Asrit Kriya, Sakshad Ukta. Yada Maya Tatha No Chyate, Saha Balakaha Ityeva Uchyate, Tada Asti Iti Adhyahriyate. They infer the Kriya, even if it is not expressly told by words. Anything which is not told expressly by words, but it is only inferred, is called Adhyahara or Gamyamana. For example, if I say, Asmi, it means Aham Asmi Ityeva. Aham Iti Adhyahete Ityutya. So Gamyamana Kriya Tatra Alam Shramena Ityatra Sadhyam Shramena Sadhyamna Iti Kriya Nochyate. Padaihi Nochyate Kevalam Adhyahara Kriyate. From the context we understand it or we infer it. This is called Gamyamana Kriya. Ashishta Vyavahare Danaha Prayoge Tadukhyarthe Tutiya Iti Vastikam. दानः प्रयोगे दानदाने इति धातुः. यच्छति इति अस्ति किल, यच्छति ददाति इत्यर्थे यच्छति. तस्य धातुः भवति दानदाने इति धातुः. तस्य प्रयोगे चतुर्थ्यर्थे तृतीया विभक्तिः भवति. चतुर्थी विभक्तेः अर्थे तृतीया विभक्तिः भवति. अशिष्टव्यवहारे यदा शिष्टव्यवहारः धार्मिकव्यवहारः न भवति. अधार्मिकव्यवहारः यत्र अस्ति तदा चतुर्थ्यर्थे तृतीया विभक्तिः भवति दानधातोः प्रयोगे. दास्या संयच्छते कामुकः. कामुकः दास्यै किञ्चित् प्रददाति इत्यर्थः. तस्यै ददाति. हि गिव् समथिङ्ग् टु हिस् सर्वेण्ट् फार् एन् अन्रैटियस् रीज़न्. अशिष्टव्यवहार. कामुकः इत्यनेनैव अत्र अशिष्टव्यवहारः इति ज्ञायते. अधार्मिकव्यवहारं मनसि निधाय दास्यै किञ्चित् ददाति सः. तदा संयच्छते इत्यत्र दानधातुः अस्ति. तस्य प्रयोगे दास्यै इति चतुर्थ्यर्थे दास्या इति तृतीया विभक्तिः भवति. दास्या संयच्छते कामुकः. धर्मीये तु व्यवहार धर्म्य द करेक्ट् वन् नाट् एन् इम्प्रापर् व्यवहार. भार्यायै संयच्छति. इट् इस् समथिङ्ग् टु हिस् वैफ्. दिस् इस् फैन्. दिस् इस् नाट् अराउण्ड् शिष्टव्यवहार. तदा तु चतुर्थी एव भवति. भार्यायै संयच्छति असंयच्छते. यदा तु अशिष्टव्यवहारः अस्ति तदा तृतीया विभक्त्या सः व्यवहारः अशिष्टः इति गम्यते. All these are indications of how it was a language, it was in conversation. Prayoge, only when bhasha is conversed can such changes happen. I mean, if it is only a written language, tada etadrishaha prayogaha nodbhavanti. Yada vyavahare etadrishaha prayogaha santi, tadaiva etadartham sutram va vartikam va nirmatavyam bhavati. There are many indications over the shastra which suggest the Sanskrit was a language of conversation. Tadaiva, this is arbitrary prayogas. I mean, these are actually arbitrary prayogas. The Shastra has done something to substantiate them later, which is correct. But the prayoga itself has arisen arbitrarily. Okay. Tadaiva jnayate vyavaharasya bhasha asiriti. Tam vyavaharam samarthayitum shastrajnaihi shastrakaraihi prayatnah krutah. So this also has very limited usage. Kadachit bhavati. So that is the end of Tritiya Vibhakti. Tritiya Vibhaktau Karaka Vibhakti hi Kartari Karane Cha Bhavati Evam Upamana Vibhaktayah Bhakriha Santi. Any questions regarding this? There are no questions. We'll quickly go through a few prayogas and see katham tritiya vibhakti. I just want you to tell me whatever is marked in red. Tritiya vibhakti hai kim moolam, kena sutrena, kim nimittam tritiya vibhakti bhavati. Okay, I don't know till when you heard, the lesson is actually over. I just wanted to spend a few moments on discussing a few prayogas of tritiya vibhakti. तृतीया विभक्तेः प्रयोगाः दृश्यन्ते. तेषु प्रयोगेषु कथं तृतीया विभक्तिः भवति इति ज्ञातुं कश्चन प्रयोगः. दिस् स्लैड् इस् सी नाट् इन् द प्रेसेण्टेशन् विच् ऐ सेण्ट् यस्टर्डे. अद्यैव कक्षायां चर्चां कुर्मः इत्येव तत् मा प्रेषितम्. सो दशनिमेषाः सन्ति चेत् वि केन् फिनिश् इट् आफ् इन् 5-10 मिनिट्स्. ओके, अहं लोकयानेन आगच्छामि इति प्रथमः प्रयोगः. तत्र कथं तृतीया विभक्तिः लोकयानेन इत्यत्र तृतीया विभक्तेः किं मूलम्? करणत्वम् सत्यम्. अहं लोकयानेन आगच्छामि इत्युक्ते आगमनक्रियायां वाहनम् इत् लोकयानं करणं भवति. प्रकृष्ट उपकारकत्वम् इट् इस् ओन्ली आफ्टर् द व्यापार आफ् द लोकयान, ओन्ली आफ्टर् द लोकयान मूव् चेन्नै अरैव्. अतः लोकयानेन आगच्छामि इत्यत्र लोकयानं करणं करणत्वात् कर्तृकरणयोस्तृतीया इत्यनेन तृतीया विभक्तिः भवति. विमानेन पञ्चवादने आगमिष्यते. अत्र विमानेन इत्यस्य तृतीया विभक्तौ किं मूलम् न श्रूयते वा? अस्तु, विमानेन आगमिष्यते पञ्चवादने इत्यत्र कथं तृतीया विभक्तिः? करणं वा? त्रापि करणत्वम् इति कृष्णमहोदयेन उच्यते. एनि अदर् आन्सर्? करणत्वं वा? विमानेन पञ्चवादने आगमिष्यते. अर्थः, वाट् इस् द मीनिङ्ग् आफ् द सेण्टेन्स्? किञ्चित् चिन्तयन्तु वा पद वाक्यस्य कः अर्थः, हेतुः कस्य हेतुः? विमानेन पञ्चवादने आगमिष्यते इत्यत्र इति वाक्यस्य कः अर्थः आदौ There is no implication here. What the vivaksha is, the plane comes at 5. The plane arrives at 5. विमानं पञ्चवादने आगमिष्यति इत्यस्य कर्मणि प्रयोगे अथवा भावे प्रयोगे कर्मपदं नास्ति न उक्तम् अविवक्षितम् विमानेन पञ्चवादने आगमिष्यते द प्लेन् कम्स् एट् फैव् इदानीं विमानेन इत्यस्य तृतीया विभक्तौ किं मूलम् कर्म समीकरणम् द प्लेन् कम्स् एट् फैव् आगमनक्रिया इट् इस् नाट् सम्बडी कमिङ्ग् बै द प्लेन् द प्लेन् कम्स् एट् फैव् ओके अहं मया पञ्चवादने आगमिष्यते ओके स्वगेट् विमानेन पञ्चवादने आगमिष्यते मया पञ्चवादने आगमिष्यते तत्र मया इत्यस्य तृतीयाय भक्तौ किं मूलम् कर्मणि प्रयोगः सत्यं किन्तु कर्मणि प्रयोगो वा मया इति किं किं कारकम् अथवा कथं विभक्तिः कारकं वा विभक्तिर्वा कथम् इति प्रश्नः कर्मणि तृतीया विभक्तिः न भवति कर्मपदस्य तृतीया विभक्तिः न भवति कर्तृकरणयोरेव तृतीया अतः कर्मपदस्य तृतीया नास्ति कर्ता मया पञ्चवादने आगमिष्यते इत्युक्ते किम् अहं पञ्चवादने आगमिष्यामि कर्तरि प्रयोग इस् देर् इट् इस् वेरि ईसि टु ऐडेण्टिफै यूस् टु कर्तरि प्रयोग सो ई ऐडेण्टिफै वेरि ईजिलि अहं पञ्चवादने आगमिष्यामि इत्युक्ते अहं कर्ता बहु सुलभं विमानं पञ्चवादने आगमिष्यति इति चेत् तत्रापि विमानं कर्ता विमानम् आगमिष्यति प्लेन् कम् इत्युक्ते विमानस्य कर्तृत्वं प्रसिद्धम् तदेव कर्मणि प्रयोगे यदा उच्यते तदा काठिन्यम् अनुभूयते तथापि अनभिहितत्वात् कर्तुः अनभिहितत्वात् आगमिष्यते इत्यनेन कर्तानोक्तः विमानं कर्ता कर्तरि तृतीया कर्तकरणयो तृतीया इत्यनेन कर्तरि तृतीया तत्तु द्रष्टव्यं केवलं विमानेन पञ्चवादने आगमिष्यते का विवक्षा इति द्रष्टव्यं यदा विमानं पञ्चवादने आगमिष्यति इति विवक्षा भवति तदा कर्तरि तृतीया यदा तु अन्यद्वाक्यमस्ति मया विमानेन पञ्चवादने आगमिष्यते अहं पञ्चवादने विमानेन आगमिष्यामि इति यदि प्रयोगः तदा अहं कर्त्री मम मया इत्यस्य कर्तरि तृतीया विमानेन इत्यस्य करणे तृतीया इट् केन् बि करण आर् कर्ता डिपेण्डिङ्ग् आन् द विवक्षा नो द विवक्षा आफ् the speaker when you are trying to understand. So that is why I explained my intention is to say the plane comes at 5. Sada kartrutvata tritiya bhakti vimanena yatra. Saha vama padena konguhu. He is lame in the left leg. Kohu sulabham. At least identifying this will be easy. So that you remember the sutra, no? वामपादेन इत्यत्र कथं तृतीया विभक्तिः अद्यैव दृष्टम् येन अङ्गविकारः येन अङ्गेन विकृतेन अङ्गिनः विकारः लक्ष्यते इति येनाङ्गविकारः इत्यनेन तृतीया उपपदतृतीया रामेण सीता अयोध्यां नीता रामेण सीता अयोध्यां नीता रामेण इत्यत्र तृतीया कथम् सहार्थे इति एकेन उच्यते හේත්වර්ථේ කියන විදිහට ඔකේ සහයෝගයේ ඉස්සේව මෙජොරිටි සෙන්ස් දුසේ සහයෝගයේ ඔකේ එද රෙටු සෙන්ටෙන්ස් දුසේ ලොකේ දෙනෙක් සෙන්ටෙන්ස් දුසේ රාමේන සීතා වනම් ගතා රාමේන සීතා අයෝධ්‍යා මීතා ඔකේ ඉස් දෙර ඩිෆරන්ස් බිට්වීන් ද සෙන්ටෙන්සස් සර්වදා යදා කාරක සුකරණේ විචාරහ ක්‍රියතේ සදා අර්ථහ ඥාතව්‍යහ මේ සුපර්ස් නෝ එක්සැක්ට්ලි වොට් ඉස් මෙන්ට් බයි ද සෙන්ටෙන්ස් ඉන් විවක්ෂිතම් इति द्रष्टव्यम् ओके सो दैट इज द फर्स्ट थिंग व्हिच यू हैव टू सी ऑलवेज इन विवक्षितम् इति द्रष्टव्यम् ओके हां වාක්‍යද්වයමස්ති තත්‍ර රාමේන සීතා වනම් ඌතා අයෝධ්‍යාම් ඌතා इति ප්‍රථම රාමේන සීතා වනම් ගතා इति දෙතියම් ඔකේ this two one thing you have this as a homework think about these two sentences and we'll discuss about it in the next class again I think like this time up so there are a few more sentences which are given in the slide which will be which I'll upload it in the ASC you can look at the slide this think about what is the reason for Tritiya Vibhakti in each of those cases Ramayana Sita Ayodhya Mita రామేణ సీతా వనం గత అహం త్రిభిః మాసైః కారక ప్రకరణం అధీయే పుస్తకేన ఛాత్రః శకునిః కపటైః అక్షైః అధీయేత విద్యయా జ్ఞానం వర్ధతే అలం విస్తరేణ సో దీస్ ఆర్ ద సెంటెన్సెస్ థింక్ అబౌట్ దీస్ సెంటెన్సెస్ అట్ హోమ్ విచింత్య అగ్రిమ కక్షాయాం చర్చాం కుర్మః సో వన్స్ యు discuss with those and you can discuss among yourselves or you can think it over yourself ante agrima kakshayam charcham kurmaha katham tritiya vibhakti kim nimittam tritiya vibhakti bhavati iti vaktavyam ీశ్వరి భావ్యకరణ సిద్ధాంతకౌమరీంద్రస్థితే